नमानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनु वाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुम् श्रीपुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वमिच्छगत यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैश्वागुम् हेण इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनत्वमुभयोराज्ञियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशील्य शल्याणाम् मुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तया स्वान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाततताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్మింజరాయ త్విషేమతే పథీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినే నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్తే జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ ककुभाय निशंगिरे सेनानाम पतये नमो नमो निशंगिन इशुधिमते तस्कराणाम पतये नमो नमो वंचते परिवंचते स्तायूनाम पतये नमो नमो निचेरवे परिचरायारण्यानाम పతయే నమో నమః శృగావిభ్యోచిగాగుంసద్భ్యో ముష్దతాం పతయే నమో నమో సిమద్భ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమ స్థిష్టభ్యో తావభ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుం హతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో భ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనానిభ్యశ్చ వో నమో నమ శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమ సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిమిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో గృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రియాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్వ్యాయ చావస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కల్యాయ చ నమః శ్లోక్యాయ చ వసామ్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురతాయ చ నమః శూలాయ చావవిందతే చ నమో వర్మినే చ వరూతినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః శీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాత్యాయ చ నీప్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశల్తాయ చ నమః కోప్యాయ చ వర్ష్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః స్వీర్త్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ చ నమః శష్ప్యాయ చ పేన్యాయ చ నమః శికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః సల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవ్వరేష్టాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्याय च सूर्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाम मत या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रभरामहे मतिम् यथा नश्चमसद्विपदे चतुष्पदे विश्वम् पुष्टम् गामे अस्मिन्ननातुलम् मृडानो रुद्रोतनो मयस्कृते शयद्वीराय नमसा विधेमते यच्चयोश्चमनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वधिर् अविष्मन्तो नमसा विधेमते आराते गोग्र उत पूरुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयता च नः शर्म यच्च विपर्हाः सुहिश्रुतम् गत्त सदम् युगानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्विणक्तु परित्वेषस्य दुर्मतिरघायो अवस्तिरा मरवद्यस्तनुष्वमीरुस्तोकाय तनयाय मृडय मेडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्नसे अस्मिन् महत्यर्नवेऽन्तरिक्षे भवा अदे नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखातः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विमतो जनान् ये पथाम् पतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचलन्ति शुकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसः सयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेतश दक्षिणा दश प्रतिचेतशोतेचेतशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्पोयश्च नो द्वेष्टितम् वोजम् भेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषः सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रथितिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वसश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वत्स्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे दत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे स संविच्चमे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्यश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च मौद्दिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेनं च मे श्रुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामकाश्च मे निवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीतं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरोधश्च म ओषधयश्च मे कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे उषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे स्वस्ता च म इन्द्रश्च मे दाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्ता च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे आर्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे दिष्टयाश्च मे सृचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे वृषभने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेयम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्टवाच्च मे पष्टौ हि च मुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे षाविगुंसतिश्च मे द्वात्रिगुंशच्च मे षत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे षाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च बोर्धा च व्यस्नियश्चान्त्यायनश्चान्द्रश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानिषगुंसि षद्विश्वे देवासोत्तवाच पृथिवीमातर्मामाहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाच मुद्ग्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरोऽनुमदन्तु ॐ शान्ति शान्ति।
शांति शांति ओम तच्छयो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं निगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिं विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध उदये पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्नता वसन्तो अस्याश्रीराज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् दन्धानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षण्य पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यारुषयश्च गे तस्माद्यज्ञात् सर्वभूतः संवृतम् वृषदाज्यम् पशुगुस्ताभुश्चग्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एते चो भयादतः गावोह जग्निरे तस्मात् तस्माजाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का ऊरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरो तदस्य यद्वैष्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुःसूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकाभुम्बकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్రధీరః నామాని కృత్వాభివదన్యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రవిశశ్చ తస్రః తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అద్భ్యః సంభూతః పృథివ్యైరసా విశ్వకర్మణః సమవర్తతాధే తస్య త్వష్టా విదధద్రూపమేతి తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే జనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య దీనాః పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి వేదసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మణే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవాః సన్వశే హ్రీశ్చ తే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినో వ్యార్తం ఇష్టం మనిషాణాం అముం మనిషాణా సర్వం మనిషాణా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్వానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శం చతుష్పదే ఓం శాంతి 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 ఓం ఆతో న ఇంద్రక్షుమంతం చిత్రం రావం సంగృహాయ మహాహస్తి దక్షిణేన విద్మాహిత్వా తు వికూర్ణిం తు విదేష్ణం తు విమఘం తు విమాత్రమవోభిః నహి త్వా శూరదేవా నమత్తాత్ శోదిత్సంతం భీమం నగాం వారయంతే ఏతోన్విన్ద్రం సభామేషానం వస్వస్వరాజం నరాధసామద్దిశన్నః ప్రస్తో చతుపగాది శత్రవత్సామగీయమానం అభిరాధసాజుగురత్ ఆనో భరదక్షిణే నాభిసవ్యేన ప్రమృషా ఇంద్రమానో వసో నిర్భాక్ ఉపక్రమస్వాభరదృశతాదృష్ణో జనానాం అదాశోశ్చరస్య వేదః इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतम् तनुहि सद्योजुमस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वशैश्च मक्षो जरन्ते गणानां त्वा गणपतिम् अवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् निशुसीद गणपते गणेशो त्वामाहुर्विप्रथमम् कवीनाम् नरुते त्वक्रियते किञ्चनारे महामर्कम् मघवञ्चित्रवच्च अभिज्ञानो मघवन्नाधमानान् सखे बोधिवसुपदे सखीनाम् रणम् कृतिरणकृत्सत्यशुष्मा भक्ते चिदाभजाराये अस्मान् ॐ शान्ति 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 ॐ देवस्य त्वा सवितुप्रसवे अश्विनोर्बाहुभ्याम् उष्णोहस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवच्छतायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पोष्टोहस्ताभ्याम् सरस्वत्यै भैषज्येन वेद्यायान्नाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पोष्टोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्याम् पोष्टोहस्ताभ्यागुम् सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्व साम्राज्येनाभिषिञ्चामीन्द्रस्य त्व साम्राज्येनाभिषिञ्चामि बृहस्पते स्व साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान्नेव यज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यम् धामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषास्ते तदस्या तदद्यात् तदस्मै देवाराजन्ताम् द्रुपदादिवेन मुमुचानः स्विन्नस्नात्वीमलादिवा पूतम् पवित्रेणेवाज्यम् आपः सुन्दन्तु मैनसः भूर्भुवस्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेथा मा गृधः कस्य स्विग्धनम्। कुर्वन्नेवेह कर्माणि जिजीविषे चतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे। असुर्यानामते लोका अन्धेन तमसा वृताः तागस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः। अणे चेकम् मनसो जवीयो नैनद्येवा आप्नुवन् पूर्वमर्षत् तद्धावतो ज्ञानत्ये तिष्ठत्तस्मिन् नभो मा तरिष्वा दधाति। तदेजति तन्नेजति तद्धूरि तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः। यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते। यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोह कशोक एकत्वमनुपश्यतः। सपर्यगाच्छुक्रमकायमव्रणमस्नाभिरगुम् शुद्धमपापविद्धम्। कविर्मनीषे परिभो स्वयम्भूयाथा तथ्यतोऽर्थान्व्यदधाच्छाश्रतेभ्यः समाभ्यः। अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्यायागुम्रताः। अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुमधीराणाम् येनस्तद्विचचक्षिरे विद्याम् च विद्याम् च यस्तद्वेदो भयगुंसः। अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते। अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम्रताः। अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवात् इति शुश्रुमधीराणाम् येनस्तद्विचचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः। विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते। हिरण्मये न पात्रेण सत्यस्यापि तम् मुखम् तत्त्वम् पूषन्न पावृणु सत्यधर्माय दृष्टये। पूषन्नेकर्षेयमसूर्य प्राजापत्यव्योहरश्मि समोहतेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि। योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमथेदम् भस्मान्तगुम् शरीरम्। ॐ
क्रतोस्वर कृतगस्वर कृतोस्वर कृतगस्वर अग्नेनय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुरानमेनो भूयिष्ठाम् ते नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विश्वोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरातम् तद्विप्रासो विपन्यवो जाग्रुवागुंसः समिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वः प्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् बिभ्राजते तत्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थ सन्न्यासयोगाद्यतयक्षुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमध्यसद्गुस्तम् तत्रापि दह्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदालो स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीलस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति